अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। आदौ मुख्याः वार्ताः। आतंकवादं प्रति पाकिस्तान पक्षतः अविरतं क्रियमाणं पोषणं मत्वा भारतेन सिन्धु जलसन्धिः स्थगितावस्थायामेव रक्षितुं पुनः स्वप्रतिज्ञा दृढीकृता। प्रधानमन्त्रिणा नरेन्द्रमोदिना पवित्रा अमरनाथ यात्रा राष्ट्रस्य आध्यात्मिक परम्परायाः सांस्कृतिक एकतायाः च कञ्चन शाश्वतम् अध्यायमिति व्याहृता। यात्रा प्रसंगे गच्छद्भ्यः सर्वेभ्यः श्रद्धालुभ्यः प्रकटिताः शुभाशंसाः। केन्द्रीय वित्त मन्त्रिणा निर्मला सीतारमणेन विकसित भारतस्य गौरवपूर्ण लक्ष्य यात्रायै फ्रांस देशस्य निवेशकाः सोत्साहम् आहुताः। भूकंप पीड़िते वेनेजुएला देशे मृतकानां संख्या 2000+ जाता। सहस्रशः जनाः सम्प्रति अपि अज्ञाताः सन्ति। भारतेन तत्र ऑपरेशन अमिस्ताद इत्यस्य अभियानस्य अन्तर्गतं मानवीय सहायता कार्याणि तीव्रीकृतानि। भारतीय ऋतु विज्ञान विभागेन श्वः यावत् गुजरात गोवा मध्य महाराष्ट्र ओडिशा मध्यप्रदेशस्य च कतिपय क्षेत्रेषु अतिवृष्टेः संचेतना प्रख्यापिता। अपि च क्रीडावार्तासु फीफा विश्वकप क्रीडा मालिकायां कैनेडा देशस्य वैंकूवर नगरे स्विट्जरलैंड देशेन अल्जीरिया देशः 2-0 इत्यंकान्तरालेन पराजित्य राउंड ऑफ 16 चक्रे प्रवेशः सम्प्राप्तः। अथ वार्ताः विशदीकृत्य। अद्य सायं नवदिल्ल्याम् आयोजितं वार्ताहर सम्मेलनं सम्बोधयन् भारतेन पुनः सबलं प्रतिपादितं यत् पाकिस्तान प्रशासन पक्षतः आतंकवादस्य निरन्तर पोषकत्वात् सिन्धु जलसन्धिः स्थगितावस्थायामेव वर्तते। विदेश मन्त्रालयस्य प्रमुखाधिकारिक प्रवक्ता रणधीर जयस्वालः प्रावोचत् यद् सिन्धु जलसन्धेः विषये भारतस्य नीतिः सर्वथा स्पष्टा अस्ति। तेन गदितं यत् पाकिस्तानेन प्रथमतः आतंकवादं प्रति स्वकीयं समर्थनं सर्वथा परित्यक्तव्यम्। तीस्ता नदी समग्र प्रबन्धन पुनरुद्धार परियोजनायाः विषये श्री जयसवालेन स्पष्टीकृतं यत् बांग्लादेशे विकास परियोजनाभ्यः दीयमाना भारतस्य सहायता कञ्चन पारस्परिक सम्मति प्राप्तं मार्गचित्रमाधृत्य वर्तते, यस्य नियतकाले समीक्षा विधीयते। तेन प्रोदीरितं यत् तीस्ता नदी परियोजनायां भारतस्य चिन्तनं पूर्वमेव बांग्लादेशं प्रति ज्ञापितम्। सहैव भारतं तीस्ता विषये स्वकीय चिन्तने सर्वान् सम्बद्ध घटनाक्रमान् संयोजयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी प्रतिवर्षं प्रवर्तमानां पवित्र अमरनाथ यात्रां राष्ट्रस्य आध्यात्मिक परम्परायाः सांस्कृतिक एकतायाः च कञ्चन शाश्वतम् अध्यायं व्यपादिशत्। तेन प्रोदीरितं यत् भगवतः बाबा बर्फानी इत्यस्य दिव्यमिदं दर्शनं कोटिशः श्रद्धालूनां जीवने एकः अविस्मरणीयः अत्यन्तं मंगलमयश्चानुभवो वर्तते। अनेन सहैव सः जम्मू कश्मीर क्षेत्रे वार्षिक यात्रां कुर्वद्भ्यः तीर्थयात्रिभ्यः हार्दिक्यः शुभाशंसाः प्राकटयत्। श्रद्धालून् प्रति प्रेषिते पत्रे प्रधानमन्त्रिणा अस्यां पावनयात्रायां पञ्च संकल्पानां परिपालनार्थम् अभ्यर्थना विहिता। एते संकल्पाः सन्ति शुचितायाः सर्वथा संरक्षणं, सुरक्षानियमानां निष्ठापूर्वकम् अनुपालनम्, स्थानीय स्वदेशीयोत्पादनानां संवर्धनम्, रक्षाबन्धन पर्वणि भगिन्यै भ्रात्रे वा पादपस्य उपहार प्रदानम्, तथा विकसित भारतस्य राष्ट्रिय संकल्पाय स्वयोगदानम्। अद्य प्रातःकालात् विधिपूर्वकम् आरब्धा इयं श्री अमरनाथ यात्रा नुनवान पहलगाम तथा बालताल इति द्वाभ्यामेव मार्गाभ्याम् अतीव सुचारुरूपेण निर्बाधं च अग्रे प्रवर्धते। केन्द्रीय वित्त मंत्री निर्मला सीतारमण न्यगादीत यद् भारत फ्रांसयोः रणनीतिक सन्धिः शाश्वत दृढ़ नवोन्मेष प्रेरित विकासस्य दिशि सर्वथा सर्वोत्कृष्टं स्थानं भजते। पेरिस नगरे आयोजितं भारत फ्रांस व्यापार सम्मेलनं संबोधयन्त्या तया सप्रमाणं प्रतिपादितं यत् प्रावधिक प्रगतेः आपूर्ति श्रृंखलायाः ऊर्जा संचारस्य भूराजनैतिक उद्भव परिवर्तनानां च कारणात् वैश्विक अर्थव्यवस्था तीव्रगत्या परिवर्तमाना वर्तते। वित्तमन्त्रिणा फ्रांस देशस्य वाणिज्य नेतारः निवेशकश्च विकसित भारतमिति राष्ट्रिय संकल्पस्य महायात्रायां भारतस्य सहयात्रिणः भवितुं सोत्साहम् आहूताः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चल दूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। भारतेन ऑपरेशन अमिस्तादित्यस्यान्तर्गतं भूकंपग्रस्ताय वेनेजुएला देशाय स्वकीया मानवीया सहायता प्रेषिता। विदेशमन्त्रालयेन सामाजिक संजालीय तन्त्रे प्रचलितस्य चिकित्सा कार्यस्य चित्राणि प्रसारयता सम्मुलिखितं यत् भारतीय सेना क्षेत्र चिकित्सालयः प्रभावितेषु समुदायेषु निरन्तरं चिकित्सा सेवाः प्रयच्छति। वेनेजुएला स्थितेन भारतीय दूतावासेन कथितं यत् अस्मिन् दक्षिण अमेरिका राष्ट्रे भारतस्य व्यावसायिक सेवा गुणवत्तायाः जनसामान्यैः भूरिशः प्रशंसा कृता। वेनेजुएला देशस्य कार्यवाहक राष्ट्रपतिः डेल्सी रोड्रिगेज इत्येषा सप्तदिवसीयस्य राष्ट्रिय शोकस्य घोषणां कृतवती। अनेन भीषण भूकंपेन मृतानां संख्या 95+500 संजाता। पश्चिम बंगाल विधानसभाया नवनिर्वाचितानां सदस्यानां कृते आयोजितस्य द्विदिवसीय अभिविन्यास कार्यक्रमस्य अद्य कोलकातायाः न्यू टाउन कन्वेंशन केन्द्रे लोकसभाध्यक्षेन ओम बिरला इत्यनेन विधिवत् उद्घाटनं विहितम्। उद्घाटन समारोहात् प्रागेव लोकसभाध्यक्षाय ओम बिरला वर्याय गार्ड ऑफ ऑनर इति राष्ट्रिय सम्मान प्रणामः समर्पितः। उद्घाटन सत्रं संबोधयन् लोकसभाध्यक्षः ओम बिरला प्रावोचत् यत् विधायकानां कृते विधि निर्माण प्रक्रियायाः तन्त्रस्य च गभीर ज्ञानस्य आवश्यकता वर्तते। भारतीय ऋतु विज्ञान विभागेन गुजरात कोंकण गोवा मध्य महाराष्ट्र ओडिशा पश्चिम मध्य प्रदेशेषु श्वः यावत् अतिवृष्टेः रक्त संचेतना प्रसारिता। अनेनैव सह छत्तीसगढ़ पूर्व मध्य प्रदेश उत्तर प्रदेश विदर्भ क्षेत्रेषु झंझावातस्य विद्युत प्रपातस्य चापि संभावना प्रकटीकृता। विभागानुसारं श्वः यावत् उत्तरप्रदेश बिहार आन्ध्रप्रदेश पश्चिम बंगाल कर्नाटक जम्मू कश्मीर लद्दाख तमिलनाडु पुदुचेरी करैकल तेलंगाना पूर्वोत्तर राज्येषु अपि अत्यधिक वृष्टिः भवितुं शक्या। फीफा विश्व चषके कैनेडा देशस्य वैंकूवर नगरे स्विट्जरलैंड देशेन अल्जीरिया देशः 2-0 इत्यंकान्तरालेन पराजित्य राउंड ऑफ 16 चक्रे प्रवेशः सम्प्राप्तः। इतिहासे चतुर्वारं प्रागुपान्त्य चरणे गन्तुं स्विट्जरलैंड दलम् आगामी मंगलवासरे अस्मिन्नेव स्थाने कोलंबिया अथवा घाना देशेन सह स्पर्धिष्यति। अन्यस्मिन् द्वन्द्वे स्पेन देशेन कैलिफोर्नियायाः लॉन्स एलेंजस क्रीडांगणे राउंड ऑफ 32 चक्रे ऑस्ट्रेलिया दलं 3-0 इत्यनेन पराभूय राउंड ऑफ 16 चक्रे स्वस्थानं सुरक्षितम्। अपरत्र कैनेडा देशस्य टोरेंटो नगरे प्रवृत्ते द्वन्द्वे पुर्तगाल देशः अपि क्रोएशिया दलं 2-0 इत्यंकान्तरालेन पराजित्य राउंड ऑफ 16 चक्रे प्राप्तवान्। मंगलवासरे डलास नगरे राउंड ऑफ 16 चक्रे पुर्तगाल दलं स्पेन देशं सम्मुखी करिष्यति। इति वार्ताः।